गुरुब्रह्म गुरुविष्णु गुरुदेवो महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र कालस्य लक्षणं कालस्य लक्षणं तत्र वयं पठितवन्तः तत्र लक्षणवाक्यं तर्कसङ्ग्रहे आसीत् तत्र अतीतादिव्यवहारः हेतुः कालः नाम घट अतीतः इति ज्ञानं तं ज्ञान तद् ज्ञानं प्रति तत्र कोऽपि तत्र शब्दप्रयोगः कृतवान् तत्र घटः अतीतः इति कोऽपि उक्तवान् उक्तवती तेन ज्ञानं जातं तादृशशब्दप्रयोगः तत्र निरर्थकः वाक्यं नास्ति इति कृत्वा तादृशशब्दप्रयोगे अर्थः अस्ति अतः तत्र शब्दप्रयोगेन ज्ञानं जातम् उत्पन्नं तत्र घटः अतीतः इति वाक्यस्य श्रवणेन तत्र ज्ञानं जातम् अतः तत्र शब्दप्रयोगः कीदृशः अस्ति इत्युक्ते तत्र ज्ञानजनकशब्दप्रयोगः आसीत् अतः ज्ञानजनकशब्दप्रयोगः एतादृशविशिष्ट प्रयो तत्र शब्दप्रयोगस्य नाम अस्ति तत्र व्यवहारः इति पारिभाषिकनामकरणमस्ति पारिभाषिकपदमस्ति न्यायशास्त्रे व्यवहारः नाम तत्र ज्ञानजनकशब्दप्रयोगः तादृशशब्दप्रयोगस्य प्रयोगं तत्र ज्ञानजनकमस्ति तत्र कारणं किं किमर्थं तत्र घट अतीतः इति वाक्ये अर्थः तत्र अवगन्तुं शक्नुमः यतोहि कालः इति किमपि द्रव्यमस्ति यदि कालः इति द्रव्यं नासीत् घटः अतीतः इति निरर्थकवाक्यं भवेत् किन्तु तत्र निरर्थकवाक्यं नास्ति अतः कालः अस्ति शब्दप्रयोगस्य ज्ञानजनकत्वप्रति कारणं तत्र शब्दप्रयोगज्ञानं जनयति इति कृत्वा तादृशशब्दप्रयोगं प्रति तत्र एतत् कारणमस्ति कालः अतः एव तत्र अतीतादिव्यवहारः हेतुः कालः इति अस्ति इति एतावत् तत्र लघुलक्षणवाक्यम् अस्ति किन्तु तत्र नैयायिकानां तत्र समाधानं नास्ति तत्र सर्वं सम्यक् रीत्या वक्तुम् इच्छन्ति तत्र ज्ञानं कीदृशं ते तस्मिन् ज्ञाने के के अंशाः सन्ति तयोः अथवा मध्ये तत्र कीदृशसम्बन्धाः अपि तत्र अवच्छेदकः कः अवच्छेद्यं किम् इति एतत् सर्वं यदि वदामः तदा एव तत्र तेषां समाधानं भवति नो चेत् आकाङ्क्षा भवति एव एतत् समीचीनं नास्ति अन्यत् किमपि अपेक्षितम् इति एव ते तेषां चिन्तनं भवति अतः तत्र तादृश विवरणाय इदानीं तत्र अस्माकं पाठः तत्र करपत्रम् अपि अस्ति तत्र स्वरूपमहोदयस्य तत्र करपत्रद्वयं तत्र इदानीं अद्य पठित्वा तत्र पुनः तत्र विद्याधरीं यत्र आसं तत्रैव गच्छामः तर्हि अस्तु तर्हि तत्र घटः अतीतः इति ज्ञानं तस्मिन् ज्ञाने तत्र विषयता विषयिता एतत् सर्वं दृष्ट्वा तदनन्तरं सोपानेन अग्रे सरामः तत्र अस्माकं सोपानं किम् अस्ति तत्र ज्ञानम् अस्ति शब्दप्रयो घटः अतीतः इति ज्ञानमस्ति तं प्रति कारणम् अस्ति शब्दप्रयोगः अपि शब्दप्रयोगं प्रति कारणमस्ति कालः अतः तत्र विषय तत्र अंशत्रयमस्ति अतः तत्र अनेके तत्र सम्बद्ध अंशाः अपि तत्र सन्ति तत्र विषयता विषयिता जनकता जन्यता एतत् सर्वं एकम् आनयामः तर्हि अस्तु समीचीनं अस्तु तर्हि तत्र आदौ तत्र ज्ञानरूपदीपस्य प्रकाशः इति प्रकाशः विषयता एतत् सर्वं वयं पूर्वं ज्ञातवन्तः केवलम् अत्र अवगमनार्थं सुलभं भवतु इति तत्र स्वरूपमहोदयेन अत्र स्थापितमस्ति तावदेव. अस्तु तर्हि तत्र हा तत्र कः आरम्भं अथवा कः आरम्भं कः. ओ अस्तु, राजीवभगिनी नमस्कारः, शोभाभगिनी नमस्कारः, प्रेमलताभगिनी नमस्कारः,
नमस्कारः
नमस्कारः भगिनी, जयलता भगिनी जयलक्ष्मी भगिनी नमस्कारः,
नमस्ते महोदय,
नमस्कारः धनश्री भगिनी नमस्कारः,
नमस्ते महोदय,
नमस्कारः. अस्तु तर्हि तत्र नरसिंहमहोदय आरम्भं करोति वा तत्र ज्ञानरूपदीपस्य प्रकाशः विषयता इति.
महोदय, ज्ञानरूपदीपस्य प्रकाश विषयता, घटः अतीतः इति एकं ज्ञानं, यथा पूर्वम् अयं घटः इति ज्ञाने घटविषयः अयं घटः इति ज्ञानं च विषयी इति प्रत्ययः नपुंसकलिङ्गे. घटः इति विषये विषयत, अयं घटः इति ज्ञाने विषयिता, विषयता ज्ञानस्य प्रभा, मनसि अस्य चित्रं भवेत्. एकं दीपमस्ति, एकं घटः अस्ति चेत् दीपस्य प्रकाशः घटे उपरि पतति, घटः विषयः भवति. अत्र अत्र दीपः ज्ञानवत् दीपः विषयी भवति इति अत्र दत्तम्. विषयिता विषयता अत्र
विषयी किम् अस्ति, विषयी
ज्ञानं.
तत्र किमर्थं ह्रस्व इकारः तत्र अत्र ह्रस्व इकारः अस्ति खलु तत्र अत्र विषयी इति एकनिमिषः अस्ति महोदय. हा तत्र विषयी इति ह्रस्व इकारः अस्ति, किमर्थं
विषयिता इत्र इत्यत्र
न तत्र ज्ञानं विषयी इति वदामः तत्र विषयी, यतोहि तत्र कः प्रत्ययः तत्र भवति तत्र यस्मिन् अथवा यस्य यस्मिन् वा इति इनि प्रत्ययः. तत्र धनम् अस्ति चेत् यस्य धनम् अस्ति अथवा यस्मिन् धनम् अस्ति धनी, तत्र तु धनीन् तत्र धनी इति दीर्घ ईकारः. यस्मिन् विषयः अथवा यस्य विषयः अस्ति सः अस्ति विषयी विषयिन् इति, किन्तु अत्र ज्ञानम् इति नपुंसकलिङ्गपदम् अस्ति अतः विषयी इति नपुंसकलिङ्गे.
धन्यवादः.
अतः तत्र
चित्रे
चित्रे ज्ञाने घटः इति विषयः, ज्ञानं विषयी.
तत्र चित्रं दर्शयामः घटः अस्ति अत्र एकत्र अयं घटः इति ज्ञानम् अस्ति, घटनिष्ठविषयता पूर्वमुक्तं घटः विषयता इति ज्ञाननिष्ठविषयिता. तत्र एकमेकं निरूपितमस्ति ज्ञाननिष्ठविषयिता निरूपित विषयता आश्रय घट इति.
तत्र वयं किं वदामः घटनिष्ठ तत्र घटनिष्ठ निरु विषयिता निरूपित विषयिता
चिन्न
ज्ञानं तत्र घटः इति आरभ्य ज्ञानं पर्यन्तं गन्तुं शक्नुमः. तादृशं कुर्मश्चेत् किं भवति
घटनिष्ठविषयता निरूपित विषयिता आश्रय ज्ञानं
इति भवति. अपि तत्र निरूपकम् इति उपयुज्य तत्र शार्ट्कट् भवति, नाम घटनिष्ठ निरूपकं ज्ञानं समीचीनं. घटनिष्ठ विषयता निरूपकं ज्ञानम् इति भवति. समीचीनं महोदय. तथैव अस्ति, तत्र शार्ट्कट् अस्ति अस्माकम्. अतः तत्र एकवारं लिखामः तत्र घटनिष्ठ निष्ठा तत्र घटनिष्ठविषयता निरूपकं ज्ञानम् इति भवति इति अस्माकं शार्ट्कट् अस्ति. समीचीनं महोदय. अस्तु अग्रे तत्र शुभदापटति वा. धन्यवादः
महोदय. धन्यवादः.
आं महोदय, अस्य चित्रस्य वर्णनार्थं विभिन्नरीत्या वाक्यानि रचयितुं शक्यन्ते. विषयतां लक्षीकृत्य, विषयिता लक्षीकृत्य इत्यादिकं. विषयता ज्ञानयोः कः सम्बन्धः इति चेत् घटनिष्ठविषयतानिरूपकं ज्ञानम् इति विशेषवाक्यं तदेव भवता लिखितमत्र घटनिष्ठविषयतानिरूपकं ज्ञानम् इति
अत्र तत्र यदि तत्र विषयतायाः विवरणम् इच्छामः तत्र कीदृशवाक्यं भवति विषयतायाः निरूपणम् इति इच्छामश्चेत् तत्र अतः आरभ्य ज्ञाननिष्ठ इति आरभ्य
ज्ञाननिष्ठविषयितानिरूपितविषय आश्रय घटः इति
विषयनिष्ठ तत्र घट विषयनिष्ठ अथवा घटनिष्ठ विषयता
घटनिष्ठविषयता
नाम तत्र विषयतायाः विशेषणद्वयमस्ति खलु विषयता कुत्र अस्ति घटे अस्ति
घटे अस्ति
अतः विषयता कीदृशी घटनिष्ठा अस्ति
आम् घटनिष्ठा
विषयता निरूपिता अस्ति विषयतया खलु
विषयितया निरूपिता विषयता
विषयता अतः अपि विषयिता कुत्र अस्ति ज्ञाने अस्ति
ज्ञाने अस्ति
अतः तत्र ज्ञाननिष्ठविषयिता निरूपिता
निरूपिता
इति एकं विशेषणं विषयतायाः खलु
आम्
अन्यः अन्यत् विशेषणं घटनिष्ठा इति
घटनिष्ठा घटनिष्ठा विषयिता
विषयता विषयता अतः तत्र सर्वं मिलित्वा ज्ञाननिष्ठविषयिता निरूपिता घटनिष्ठा विषयता खलु इदानीं तादृशं विषयितायाः निरूपणं करोतु घटनिष्ठ
घटनिष्ठविषयतानिरूपितविषयिता अपि च ज्ञाननिष्ठा विषयिता
विषयिता इदानीं मेलनं कृत्वा घटनिष्ठ
घटनिष्ठविषयता निरूपित ज्ञाननिष्ठविषयिता
तत्र विषयिता द्विवारम् अनुक्त्वा केवलम् अन्ते एकवारं वदामः तावदेव
अस्तु
खलु घटनिष्ठविषयता निरूपिता विषयिता प्रथमवारम् अपि ज्ञाननिष्ठविषयता विषयिता इति अनुक्त्वा घटनिष्ठविषयता निरूपिता ज्ञाननिष्ठविषयिता
अस्तु अस्तु अवगतम्
समीचीनं खलु अपि अत्र शार्ट्कट् अस्ति निरूपकम् इति तस्य प्रयोगं कृत्वा वदतु तं किमस्ति वाक्यं किमस्ति घटनिष्ठ
घटनिष्ठविषयता निरूपकं
ज्ञानं
निरूपकं ज्ञानम्
ज्ञानम् इति भवति समीचीनम् अस्तु अग्रे तत्र उषा भगिनी पठितुमिच्छति वा अग्रे
आं महोदय इयं च विषयतारूपा प्रभा घटे विद्यमाना ज्ञानेन विना न भवति अतः अयं विषयतारूपप्रकाशः कस्य इति चेत् ज्ञानस्य एव अपि च अयं प्रकाशः यत्र पतति सः ज्ञानस्य विषयः इति उच्यते यथा अयं घटः इति ज्ञाने विषयतारूपा प्रभा घटे पतति अतः घटः ज्ञानस्य विषयः
किञ्चित् वदतु भगिनि तर्हि
इयं च विषयता रूपा प्रभा घटे विद्यमाना घटे विद्यमाना प्रभा विषयता इति भवति यतोहि इति अनन्तरं उच्यते ज्ञानेन विना तादृश प्रभा तादृशज्ञानं न भवति तादृशविषयता न अवगच्छति
न भवति तत्र पदार्थः अस्ति पदार्थः कदा विषयः भवति यदा कस्यचित् ज्ञानमस्ति
ज्ञाने
कस्यचित् ज्ञानमस्ति पदार्थस्य तस्मिन् समये एव तत्र विषयः भवति तत्र यदि वयं सम्भाषणं भवती मित्रं पृच्छति अस्तु सम्भाषणं कुर्मः तदा किं भवती वदति विषयः कः इति खलु
आम् महोदय
विषयः कः नाम
कः
अस्माकं विषयः ज्ञानस्य विषयः कः इति. अतः पदार्थः पदार्थः एव भवति. यदा ज्ञानमस्ति तदा पदार्थः विषयः
विषयता भवति.
हा, तदा तस्मिन् पदार्थे अथवा तस्य पदार्थस्य उपरि तत्र विषयतारूपाप्रभा रूपाप्रभा पतति
पतति. अतः अयं विषयतारूपप्रकाशः कस्य इति चेत् ज्ञानस्य एव. ओके, तदेव भवान्
उक्तवान्.
अपि च अयं प्रकाशः यत्र पतति सः ज्ञानस्य विषयः इति उच्यते. पदार्थः एव विषयः भवति. तत् पदार्थः यत्र प्रकाशः पतति तत् पदार्थः एव ज्ञानस्य विषयः
भवति इति भवति. तत्र उपमानं, तत्र एनालजि इति अस्ति खलु, नाम तत्र ज्ञानमिति प्रभा प्रकाशरूपेण वयं चिन्तयामः खलु. अस्माकं हा तत्र ज्ञानोदयः भवति इति सर्वं वदामः खलु. तत्र प्रकोष्ठे अन्धकारः अस्ति, किमपि न दृश्यते. यदि त वयं करदीपं स्वीकृत्य तत्र प्रकाशयामः, तत्र प्रभा यस्मिन् पतति तदेव तस्य ज्ञानमेव अस्ति खलु अस्माकम्. अतः यस्य उपरि पतति सः विषयः. इदानीं करदीपम् अन्यत्र तत्र अन्यस्मिन् अन्यस्यां दिशि
अन्यपदार्थः अन्यविषयः दृश्यते,
अन्यः विषयः भवति. अन्यः पदार्थस्य अन्यस्य पदार्थस्य प्रकाशः भवति, अन्यपदार्थः विषयः भवति. अतः तत्र ज्ञानस्य प्रभा यत्र अस्ति, प्रभा ज्ञानस्य प्रभा अस्ति, तस्य ज्ञानस्य विषयः सः पदार्थः भवति. तत्र अयं घटः इति ज्ञाने विषयः कः अस्ति, विषयः
घटः इति विषयतारूपा प्रभा घटे पतति
पतति. अतः घटः एव विषयः. अयं घटः इति ज्ञानम् आत्मनि भवति, घटः इति पदार्थः बहिः अस्ति, सः पदार्थः विषयः भवति ज्ञानस्य. समीचीनं भगिनि. हा अस्तु, धन्यवादः. अस्तु अग्रे तत्र
महोदय, अत्र विषयतारूपाप्रभा इति किमर्थं वदति? घटः विषयः, घटे विषयता अस्ति, विषयतारूपाप्रभा
इति तत्र वयं सम्बन्धं स्वीकुर्मः भगिनि. नाम तत्र अग्रे गत्वा तत्र प्रत्यक्षज्ञानम् इति यदि वदामः तत्र किं भवति, प्रत्यक्षज्ञानं तत्र अयं घटः इति ज्ञानम् अस्तु. घटः पश्यामः, भवती घटं पश्यति, भवत्याः मनस् आत्मनि अयं घटः इति ज्ञानम् उत्पन्नम्. इदानीं प्रश्नः उदेति, तत्र एतत् सर्वम् अग्रे गत्वा चिन्तयामः, किन्तु केवलं तत्र स्थूलरीत्या दिग्दर्शनरूपेण वदामि. नाम तत्र ज्ञानम् उत्पन्नं केन उत्पन्नं? घटस्य दर्शनेन खलु. इदानीं तत्र घटमपि घटः अपि कारणमस्ति खलु अस्य एतद् ज्ञानं प्रति.
सत्यं.
हा, इदानीं तत्र वयं जानीमः तत्र कारणं कार्यं तयोः मध्ये समानाधिकरणं भवेत्, नियमाः सन्ति खलु कार्यकारणसम्बन्धे, तदा भवति. अस्तु, तत्र ज्ञानं कुत्र उत्पन्नं? आत्मनि उत्पन्नं, घटतुः बहिः अस्ति, लोके अस्ति, किन्तु समानाधिकरणम् अपेक्षितमस्ति. तर्हि केन सम्बन्धेन घटः यः बहिः अस्ति, केन सम्बन्धेन सः आत्मनि यः यत्र ज्ञानस्य अधिकरणम् आत्मा अस्ति, तस्मिन् अधिकरणे घटः केन सम्बन्धेन अस्ति भवेत् खलु. हा, अतः तत्र तादृशसम्बन्धस्य कल्पनाय तत्र विषयिता इति उक्तम् अस्ति. विषयता विषयिता इति तयोः उपयोगेन तत्र वयं तत्र कार्यकारणसम्बन्धं सम्यक्तया स्थापितुं निरूपयितुं शक्नुमः अग्रे गत्वा.
अस्तु,
अतः तत्र इदानीम् एतत् केवलम् अवगच्छन्तु, नाम ज्ञानम् इति अत्र प्रभारूपेण तत्र प्रकाशयति नाम तत्र चक्षुषा तत्र तेजः गच्छति घटं प्रति तदा एव घटस्य ज्ञानं वयं प्राप्नुमः तदा एव प्रत्यक्षदर्शनं भवति खलु घटस्य अतः प्रभा इति घटस्य उपरि पतति किन्तु साक्षात् चक्षुषा ज्ञानम् इति नास्ति खलु तत्र ज्ञानम् अनेकैः मार्गैः भवति खलु
प्रभा अत्र विषयितारूपा इति भाति अतः अहं विषयतारूपा
इति तत्र अस्तु भगिनि तत्र पुस्तके किमस्ति तत्र अहं न स्मरामि किन्तु हा हा विषयिता
सम्यक् एव भवेत्
अस्तु भगिनि हा अस्तु तत्र पुनः तत्र वर्गस्य अनन्तरं पुनः एकवारं दृष्ट्वा चर्चयामः भगिनि हा समीचीनप्रश्नः एव हा अस्तु अग्रे सरामः तर्हि तत्र चन्द्रमती भगिनी अग्रे पठति वा
आं महोदय दीपरूप दीपरूपज्ञानस्य प्रकाशः विषयता सा च द्विविधा प्रकारदा विशेष्यता अधुना यत्र अस्मिन् ज्ञाने वस्तुद्वयम् अस्ति तत्र प्रभाद्वयम् अपि अस्ति यथा भूदलं खडवत् भूतले खडः भूदलम् अधिकरणम् अपि ज्ञानं खडः आधेयः अपि ज्ञानं मूलत्वम् एकः विषयः खडः अन्यविषयः भूदले विषयदा अस्ति खडे खडे इति खडे अपि विषयदा अस्ति अनयोः द्वयोः विषयोः विषयदा भिन्ना अधः अस्य प्रदर्शनार्थं नामकरणं भिन्नं भूदलं विशेष्यं खडस्य विशेषणं खडश्च विशेषण इति कृत्वा भूदले विद्यमाना विषयदा विशेष्यता खडे विद्यमाना विषयदा प्रकारता इति पृथक्तया नामकरणम् अपि च यथा भूदलं खडवत् इत्यस्मिन् भूदलं विशेष्यं खडः विशेषणं तथैव खडः अधीतः इत्यस्मिन् खडः विशेष्यः अधीतत्वं विशेषणम्
इति अस्तु भगिनि तत्र
दीपरूपज्ञानस्य प्रकाशः विषयता सा च द्विविधा प्रकारता विशेषिता विषय कार्यद्वयम् अस्ति विषयता
तत्र भगिनि अत्र भूतलं घटवत् इति तत्र भूतले घटः अस्ति इति खलु भूतलं घटवत् इति ज्ञानम् अस्ति तत्र कति तत्र भूतलं
भूतलम् अधिकरण भूतलम् अधिकरणं खडं भूतले अस्ति इति भूतलम् अधिकरणं ज्ञानं भविष्यति खडः आधेयः भूतलम् एकः विषयः खडः अन्यविषयः भूतले खडः अस्ति इति विषयता भूतले विषयता अस्ति खडः भूतले अस्ति अतः खडे भूतले विषयता अस्ति खडे अपि विषयता अस्ति द्वयमस्ति
तस्य अस्य उपरि अपि अत्रापि घटे अपि विषयता अस्ति
भूदले अपि
भूतलमपि विषयः
भूदले भूदले अधिकरणदा खडे अधेयदा
हा किन्तु हा तत् तदपि भवितुमर्हति किन्तु वयं किं कुर्मः तत्र घटवत् भूतलम् इति ज्ञानम् इति कृत्वा तत्र विशेषणं किं विशेषं किम्
विशेषणं भूतलं खडवत् इति विशेषणं
विशेषवत् विशेषं किम्
खडवत् इति भूतलं खडवत्
विशेषं किम् अस्ति
खडः
न तत्र उत्तमः बालकः इति वदामश्चेत् तत्र विशेषं किमस्ति
बालकः विशेषम् उत्तमः विशेषणम्
हा तत्र कस्य विवरणम् अस्ति तत्र भूतलं घटवत् इति तत्र भूतलस्य विवरणं वा
भूतलस्य विषये
यथा तत्र उत्तमः बालकः इति तत्र विवरणमस्ति बालकस्य खलु
अस्तु
हा कीदृशः बालकः खलु अत्र की अत्र प्रश्नः कः अस्ति भूतलं घटवत् इति उत्तरम् अस्ति चेत्
तत्र भूतलस्य विशेषं भूतलं खडवत् अस्ति अतः भूतलस्य विशेषं
भूतलं कीदृशं
भूतलं कीदृशं भूतलं
खलु अतः भूतलं विशेष्यं खलु
विशेष्यं
भूतलं विशेष्यम् अतः तत्र तत्र नामकरणं वयं कृतवन्तः तत्र पेज् 36 मध्ये खलु पूर्वं वयं कृतवन्तः तत्र पेज् 36 मध्ये तत्र विशेष्ये या विषयता अस्ति तस्य नामकरणमस्ति विशेष्यता विशेष्यता अपि हा तर्हि तत्र विशेष्यता अत्र अस्ति विशेष्यता खलु
अस्तु विशेषता भूतले अस्ति
विशेषता भूतले अस्ति अपि तत्र विशेषणं किम् अस्ति
विशेषणं खडः
घटः अस्ति किमर्थं घटः अस्ति किमर्थं घटवत् नास्ति तत्र घटवत् एव विशेषणं भवेत् खलु तत्र किन्तु किम् आसीत् तत्र वयं करपत्ररूपेण एतस्य दीर्घाचर्चा एतस्य दीर्घां चर्चां पठितवन्तः खलु तत्र घटवत् तत्र उन्नतः बालकः इति अस्ति चेत् तत्र बालके किमपि गुणः भवेत् येन सः बालकः अन्येभ्यः बालकेभ्यः भिद्यते खलु तत्र गुणवाचकः गुणिवाचकः गुणगुणिवाचकः शब्दस्य इति तत्र वयं पठितवन्तः खलु भगिनि
अत्र तत् बालके अस्ति किन्तु अत्र खडभूदले भिन्नमस्ति खडभूदमस्ति भिन्नभूदले
समीचीनं तत्र उन्नतः बालकः इति यदि वदामः तत्र बालके किम् अस्ति
औन्नत्यमस्ति
हा औन्नत्यम् इति अस्ति अतः तथैव अत्र घटः एव विशेषणं समीचीनं भगिनि हा घटः एव विशेषणं विशेषणम् अस्ति इति कृत्वा तस्मिन् विद्यमाना तत्र विषयतायाः नाम किम् अस्ति
विशेषता
अत्र अस्ति अत्र विषयता अस्ति तस्याः नाम किम् अस्ति
अधिकरण
न तत्र पठतु तत्र भूतलं विशेष्यम् इति
भूतलं विशेषं खडस्य विशेषणम् इति कृत्वा भूतले विद्यमाना विषयता विशेष्यता खडे विद्यमाना विषयता प्रकारता इति पृथक्तया नामकरणं विशेष्यता प्रकारता
खलु खलु भगिनि समीचीनं खलु
खडे प्रकारता विशेष्यता भूतले अस्ति
अस्ति अपि तत्र सम्बन्धे अत्र संयोगसम्बन्धः तस्मिन्नपि विषयता अस्ति तस्याः नाम अस्ति संसर्गता संसर्गता तत्र एतत् स्मर्तव्यं नाम तत्र प्रकारता विशेष्यता संसर्गता अत्र संसर्गतायाः तत्र महत्त्वं नास्ति केवलं प्रकारता अस्ति घटे विशेष्यता अस्ति भूतले प्रकारता कुत्र अस्ति आधेये अस्ति विशेषता कुत्र अस्ति अधिकरणं अधिकरणे अस्ति। तथैव इदानीं भवती अस्य उत्तरमपि ददातु, तर्हि तत्र इदानीं घटः अतीतः इति ज्ञानम्, घटः अतीतः इति ज्ञानं, यतः यथा भूतलं घटवत् इति, अत्र अस्ति भूतलं घटवत्। तत्र भूतलं घटवत् पुनः विशेष्यं किं, विशेषणं किम् अत्र अत्र भूतलं घट भूतलं घटवत् विशेष्यं
भूतलं भूतलं विशेष्यं
घटवत् इति विशेषणवाचकपदं, साक्षात् विशेषणं किम् अस्ति घटः एव खलु, यतोहि घटः एव भूतले अस्ति खलु।
अस्तु,
इदानीं घटः अतीतः इति ज्ञानम्, अत्र विशेषणं किं, विशेष्यं किं, विशेष्यं किम् इति प्रथमतया वदतु। नो चेत् अन्यक् उपयोग करोतु, चिन्ता मास्तु भगिनि। अस्तु तर्हि, चिन्ता, धन्यवादः भगिनि, एतावत्
समीचीनं।
हा धन्यवादः भगिनि। अस्तु धनश्री भगिनि अग्रे, तत्र अस्तु भगिनि, किन्तु तत्र धनश्री भगिनी इदानीं वदेत्। धन्यवादः भगिनि। अस्तु धनश्री भगिनी, इदानीं तत्र भूतलं घटवत् इति ज्ञाने विशेष्यमस्ति, भूतलमस्ति विशेष्यं,
घटः विशेषणं,
विशेषणं। तर्हि घटः अतीतः इति ज्ञाने
घटः विशेष्य आणि अतीतः विशेषणम्।
अस्तु तर्हि घटः इति साक्षात् विशेष्यम्, अस्तु तर्हि तत्र अस्मिन् अधिकरणता अस्ति, विशेष्यता अत्र अस्ति, समीचीनम्। अस्तु इदानीं तत्र, अस्तु इदानीं तत्र विशेषणं किम् अस्ति इति प्रश्नः।
अतीतः इति एव
तत्र उन्नतः बालकः इति प्रसङ्गे तत्र साक्षात् विशेषणं किम् अस्ति?
औन्नत्यम्।
औन्नत्यम् अथवा उन्नतत्वम्। अतीतत्वम् इति विशेषणम्, अतीतत्वं घटे विद्यमानगुणं, तत्र विद्यमानं तत्र लौकिकरीत्या गुणम् अस्ति, येन एषः घटः अन्येभ्यः घटेभ्यः भिद्यते, अतः एव तत्र अतीतत्वम् इति विशेषणम् इति उक्तं खलु। समीचीनम्। एतावत् कोऽपि प्रश्नः, अतः तत्र
अन्तर्गितायाः कोऽपि
महत्त्वं नास्ति, किं इदानीं तस्य आवश्यकता नास्ति इति कृत्वा किमपि न वदामः। अस्तु तर्हि इदानीं तत्र यदा तत्र वयं जानीमः तत्र अतीतत्वं घटे अस्ति, अतः तत्र इदानीं तत्र किं किम् अस्ति?
घटनिष्ठ अधिकरणता निरूपित अतीतत्वनिष्ठ आधेयता
इति अस्ति खलु। इदानीं तत्र अतः तत्र एतत् चित्रं जानीमः, घटः घटे तत्र अधिकरणता अस्ति, अपि अतीतत्वे आधेयता अस्ति, अपि तत्र तयोः मध्ये निरूप्यनिरूपकभावः अस्ति। इदानीं तत्र इदानीम् अग्रे वाक्यम्, एतत् सर्वं
मनसि निधाय आहत्य घटः आसीत् इति वाक्ये विशिष्टं ज्ञानम् इदं घटनिष्ठ विशेष्यता निरूपकम् अतीतत्वनिष्ठ प्रकारतानिरूपकं ज्ञानम्। घटनिष्ठ विशेष्यता निरूपकम् अतीतत्वनिष्ठ प्रकारतानिरूपकं ज्ञानम् एव
इति पठितवती। एकनिमिषं पुनः तत्र पूर्वस्मिन् चित्रं पठामः, तत्र
निरूपकं डायगोनल्
घटः अस्ति, विषयः ज्ञानम् अत्र अस्ति, विषयता अत्र अस्ति। इदानीं प्रश्नः अस्ति कीदृशं ज्ञानम् इति प्रश्ने सति, अपि शार्ट्कट् तस्य उपयोगेन किं भवति, विषय घटनिष्ठ
विषयता निरूपकं ज्ञानं
ज्ञानं खलु तर्हि विषयः विषय विषयता अस्ति अतः अत्र घटः इति विषयः विषय घटनिष्ठ विषयता निरूपकं ज्ञानं हा इति एतद् वाक्यं मनसि यदि चिन्तयति एतद् वाक्यं तादृशम् अत्र यदि करोति चेत् तत्र अतीतत्वे तत्र किम् अस्ति अतीतत्वे किम् अस्ति अतीतत्व एतदेव स्वीकुर्मः तत्र तर्हि अतीतत्वे किम् अस्ति अतीतत्वे अतीतत्वं प्रकारता अस्ति खलु खलु प्रकारता एव विषयता खलु विषयतायाः नाम अस्ति प्रकारता घटे या विषयता अस्ति नाम विशेष्यता हा तर्हि ज्ञानं कीदृशम् इति प्रश्ने सति तत्र निरूपकम् इति तत्र विषयद्वयमस्ति इति कृत्वा अस्मिन् ज्ञाने एकं शार्ट्कट् तथा गच्छति खलु विशेष्यातः ज्ञानं प्रति निरूपकम् इति गच्छति खलु
घटनिष्ठविशेषता निरूपकं ज्ञानम्
अपि अस्मिन् ज्ञाने विषयद्वयमस्ति इति कृत्वा प्रकारतातः अपि ज्ञानं प्रति निरूपकम् इति शरः भवति खलु
अतीतत्वनिष्ठप्रकारता निरूपकं ज्ञानम्
तर्हि तत्र किं पुनः एकवारं पठतु तर्हि तत्र तर्हि वाक्यं
घटनिष्ठविशेषता निरूपकम् अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानं
समीचीनमस्ति खलु तर्हि घटः अतीतः इति ज्ञानं कीदृशम् इत्युक्ते एतादृशम् अस्ति अतः तत्र घटे अतीतत्वम् इति तत्र विशेषणम् अस्ति अस्तु इदानीं तर्हि अग्रे सरामः इदानीम् एतात् तर्हि तत्र विशेष्यता विषयिता इति एतत् सर्वं तत्र एतदेव वयम् उक्तवन्तः खलु एता इदानीं तत्र निरूपकम् इति अस्ति निरूपकम् इति अस्ति खलु
विशेष्यता निरूपकं ज्ञानं घट अतीतः इति ज्ञानं पुनः अतीतत्वनिष्ठप्रकारतानिरूपकं ज्ञानं घटः अतीतः इति ज्ञानम्
इति अपि तत्र विशेष्यता अपि प्रकारता तयोः मध्ये अपि निरूप्य निरूपकभावः अस्ति इति वयम् एतत् सर्वं पेज् 36-37 मध्ये दृष्टवन्तः खलु अतः तत्रापि निरूप्य निरूपकभावः अस्ति विषयिता विषयता तयोः मध्ये अपि निरूप्य निरूपकभावः अस्ति अत्र अन्यत् अपि तत्र निरूप्य निरूपकभावः तयोः मध्ये अपि अस्ति किन्तु न लिखितम् अस्तु इदानीं तत्र चित्रं स्पष्टं खलु तर्हि अस्तु समीचीनम् अस्तु अग्रे तत्र जयलक्ष्मी भगिनी पुनः स्वशब्दैः किञ्चित् वदति वा भगिनी तत्र चित्रस्य विवरणं करोति वा किं किम् अस्ति कथम् इति
आं प्रयत्नं करिष्यामि महोदय घटः अतीतः इति वाक्यम्
इति अस्माकं ज्ञानं
इति ज्ञानमस्ति अत्र घटः अधिकरणम् अस्ति अतीतः इति अधेयः अस्ति
अतीतः इति अधेयः नास्ति खलु
अतीतत्वं
हा यतः यथा तत्र उन्नतः वृक्षः अथवा उन्नतः बालकः विद्यमानम् औन्नत्यं तथैव अतीतत्वम्
अतीतत्वम् इति अधेयः तेन कारणेन अत्र घटः घटे विषयः घटः विषयः अस्ति विषयता घटे वर्तते अतः घटनिष्ठविषयता इति समीचीनं वाक्यं भवति तेन निरूपिता भवति घटे विशेष्यता अपि अस्ति किमर्थमिति चेत् घटः विशेष्यम् अस्ति
अतीतः इति घटः विशेष्यम् इति कृत्वा तस्मिन् विद्यमान विषयतायाः विशेष्यता इति नामकरणं विषयतायाः
तेन कारणेन घटनिष्ठविशेष्यता इति अपि
ज्ञानं निरूपति तत्र अतः घटनिष्ठविशेषता निरूपकं ज्ञानं नाम ज्ञानं निरूपितं भवति घटनिष्ठविशेष्यतया निरूपितं भवति अतः तत्र घटनिष्ठविशेष्यता निरूपकं ज्ञानम् अथवा अन्यस्मिन् विषये अपि वक्तुं शक्नुमः अपि
इदानीम् अतीतत्वम् इति प्रकारः अस्ति तस्मिन् प्रकारता अस्ति
यतोहि सः तत्र अतीतत्वमेव विशेषणं
विशेषणम् अस्ति अत्र प्रकारता भवति अतीतत्वे अतः अतीतत्वनिष्ठा प्रकारता निरूपितज्ञानम्
अथवा निरूपकं ज्ञानं
निरूपकं ज्ञानम् इति
तत्र निरूप्य निरूपकः भावः अस्ति इति कृत्वा निरूपितम् अपि वक्तुं शक्नुमः निरूपकम् अपि वक्तुं शक्नुमः अतः तत्र ज्ञानं कीदृशम् इत्युक्ते
घटनिष्ठविशेष्यता निरूपकं ज्ञानम् अथवा अतीतत्वनिष्ठा प्रकारता निरूपकं ज्ञानम्
इति तत्र द्वयोः तत्र उपयोगः अस्ति अतः तत्र द्वयमपि वक्तव्यमस्ति अस्माभिः
इत्युक्ते ज्ञानस्य दृष्ट्या ज्ञानस्य सम्बन्धः द्वयोः अपि अस्ति इति कारणेन घटे अपि अस्ति अतीतत्वे अपि अस्ति
अतः तत्र द्वयस्य तत्र उल्लेखः भवेत् ज्ञानस्य विवरणसमये समीचीनं अस्तु इदानीम् अग्रे किञ्चित् पठति वा भगिनि
पठामि घटः अतीतः इत्यस्य कथनेन एतादृशं विशिष्टं ज्ञानं व्युत्पन्नम् इति कृत्वा अस्य ज्ञानस्य कारणम् एव अयं शब्दप्रयोगः अपि च अयं घटः अतीतः इति शब्दप्रयोगः कालाख्यं द्रव्यं कालनामकं द्रव्यं विना न सम्भवति इति कृत्वा एतादृशज्ञानजनकशब्दप्रयोगस्य कारणं कालः घटः अतीतः इत्यस्य कथनेन निष्पन्नं ज्ञानं प्रति शब्दप्रयोगः कारणं पुनः शब्दप्रयोगं प्रति कालः कारणम् अत्र घटः अतीतः इति यत् वाक्यमस्ति यत् ज्ञानमस्ति तेन कथनेन विशिष्टं ज्ञानं व्युत्पन्नं भवति यतोहि ज्ञानसम्बन्धेन
अतीतः इत्यस्य कथनेन नाम घटः अतीतः इति कोऽपि वदति
इति एतत् वाक्यमस्ति कोऽपि वदति कोऽपि शृण्मः चेत् तत्र ज्ञानं व्युत्पन्नं भवति विशिष्टज्ञानमस्ति एतत् इति कारणेन ज्ञानस्य अयं शब्दप्रयोगः इति उक्तं
खलु नाम शब्दप्रयोगेन एव ज्ञानम् उत्पन्नं तर्हि शब्दप्रयोगः कारणमस्ति ज्ञानं प्रति
अत्र पुनः वदति घटः अतीतः इति शब्दप्रयोगः अस्ति अत्र कालस्य अपि निर्देशः अस्ति यतोहि काले एव घटः तिष्ठति अथवा वर्तते
द्रव्यं
द्रव्यम् आसीत्
तत्र आधारः तत्र वाक्यस्य आधारः काले अस्ति खलु वाक्यं निरर्थकं भवति
अतः कालशब्दस्य विना एतत् न सम्भवति एतस्य अर्थः कालः घटः अतीतः इति शब्दप्रयोगः यदा कुर्मः तेन यत् ज्ञानं भवति तत्तु कालाख्य द्रव्यं विना तु न भवति इति उक्तं
नाम यदि कालः नासीत् तर्हि घटः अतीतः इति वाक्यं निरर्थकं भवति खलु निरर्थकं वाक्यस्य श्रवणेन ज्ञानम् उत्पन्नं भवति अथवा न उत्पन्नं भवति किं
सत्यम् आम्
न उत्पन्नं न भवति खलु
निरर्थकवाक्यं
न किन्तु किमपि निरर्थकं वाक्यम् अस्ति वाक्यस्य अर्थः नास्ति तादृशवाक्यस्य श्रवणेन ज्ञानम् उत्पन्नं भवति वा
न भवति
न भवति अतः तत्र किन्तु अत्र ज्ञानम् उत्पन्नम् अतः तत्र शब्दप्रयोगेन तत्र तत् कीदृशशब्दप्रयोगः ज्ञानजनकशब्दप्रयोगः तं प्रति कारणमस्ति
कालः इति द्रव्यं
कालः इति द्रव्यम् अतः तत्र ज्ञानं प्रति किं कारणमस्ति
शब्दप्रयोगः कारणम् ज्ञानं प्रति शब्दप्रयोगः कारणं पुनः शब्दप्रयोगं प्रति कालः च कारणम् इति
तर्हि तत्र शब्दप्रयोगः किं भवति कार्यमपि अस्ति
कारणं च
मध्ये अस्ति शब्दप्रयोगः अतः तत्र तेन ज्ञानम् उत्पन्नं भवति अपि शब्दप्रयोगः कालेन उत्पन्नम् अस्ति तर्हि तत्र शब्दप्रयोगं शब्दप्रयोगः कारणम् इति कृत्वा शब्दप्रयोगे किम् अस्ति शब्दप्रयोगं कारणम् इति अस्ति चेत् तस्मिन् कारणता अस्ति ज्ञाने कार्यता अस्ति अपि पुनः शब्दप्रयोगं प्रति कालः कारणमिति कृत्वा काले
कालः काले कारणता अस्ति शब्दप्रयोगे कार्यता
अस्ति अतः तत्र शब्दप्रयोगे कारणता अपि अस्ति कार्यता अपि अस्ति
इदानीं महोदय कालः अधिकरणं भवति चेत् काले एव घटः वर्तते इति अर्थः निष्पद्यते चेत्
वर्तते इति नासीत् केवलं तत्र एतादृशवाक्यं कालेन विना निरर्थकं भवति
न भवति
इति एव तत्र एतावत् तत्र कीदृशसम्बन्धः इति एतत् सर्वं न उक्तं केवलं तत्र एषः शब्दप्रयोगः कीदृशः इत्युक्ते तेन ज्ञानम् उत्पद्यते तर्हि ज्ञानजनकशब्दप्रयोगः नाम व्यवहारः अस्ति घटः अतीतः इति व्यवहारः अस्ति यतोहि तेन ज्ञानम् उत्पन्नं भवति खलु इति अस्ति अस्तु समीचीनं भगिनि धन्यवादः अस्तु अग्रे तत्र सुधा भगिनी अग्रे पठितुम् इच्छति वा
आं महोदय कालस्य लक्षणम् अधुना लक्षणवाक्यस्य निर्माणार्थं विद्याधरी इति पुस्तके पृष्ठसङ्ख्या अस्ति 55 इत्यस्य चित्रं दृष्ट्वा अत्र अग्रे पठतु
अत एव तत्र चित्रं मया स्थापितमस्ति तर्हि एतदेव चित्रम् अपेक्षितमस्ति अस्तु अग्रे पठतु तर्हि भगिनि
तर्हि इति वा
तर्हि अत्र सत्यं भगिनि
तर्हि ज्ञाननिष्ठकार्यतानिरूपितकारणता शब्दप्रयोगे तन्निष्ठकार्यतानिरूपितकारणता काले तर्हि अनेन कालस्य किं लक्षणं वक्तुं शक्यते
इति तावत्पर्यन्तं भगिनि तावत्पर्यन्तं किञ्चित् चित्रं दृष्ट्वा किञ्चित् वदतु भवती यद्यत् वदति अहं तत्र पायिण्टर् स्थापयामि तर्हि तत्र शब्दप्रयोगे किमस्ति एतत् दत्तमस्ति किन्तु किमर्थम् इति तत् किञ्चित् वदतु भगिनि
अस्तु अत्र प्रथमतया वयं जानीमः घटे विशेष्यता अस्ति
इदानीम् अस्तु घटे विशेष्यता अस्ति समीचीनं
अपि च घटनिष्ठविशेष्यतानिरूपकं ज्ञानम् अपि अस्ति
समीचीनं ज्ञानं कीदृशं घटनिष्ठविशेष्यतानिरूपकं ज्ञानम् अस्ति अपि
अतीतत्वे प्रकारता अस्ति इति अपि वयं दृष्टवन्तः अतः अतीतत्वनिष्ठप्रकारतानिरूपकम् अपि ज्ञानस्य
भवति समीचीनं भगिनि अतः तत्र ज्ञानं तादृशम् अस्ति समीचीनं भगिनि इदानीं वयं किं कर्तुम् इच्छामः चेत् एतावत् तत्र ज्ञानस्य निरूपणं कृतवन्तः खलु एतादृशं ज्ञानमस्ति इदानीं वयं किं कर्तुम् इच्छामश्चेत् वयं कालस्य कालः कीदृशः इति वक्तुम् इच्छामः
अस्तु तादृशशब्दप्रयोगस्य शब्दप्रयोगं प्रति कालः कारणम् इति कृत्वा काले कारणता अस्ति इति अपि वक्तुं शक्नुमः
इति अस्तु तर्हि तर्हि तत्र किं जातं क्षम्यतां तत्र अस्तु पायिण्टर् न कार्यं न करोति अस्तु तर्हि भगिनि तर्हि तत्र ज्ञानं ज्ञाने कार्यता इति दत्तमस्ति किमर्थं कार्यता अस्ति ज्ञाने ज्ञाने तत्र ज्ञानं कारणमस्ति वा कार्यमस्ति वा ज्ञानम्
अस्ति
कारणं किमस्ति ज्ञानं प्रति
शब्दप्रयोगः एव कारणम्
कारणं समीचीनं तर्हि शब्दप्रयोगे किम् अस्ति
शब्दप्रयोगे कारणता अस्ति
कारणता अस्ति अपि कार्यता अस्ति
तयोः मध्ये अपि निरुप
निरूप्य निरूपकभावः अस्ति समीचीनं समीचीनं भगिनि अपि तत्र शब्दप्रयोगस्य किमपि कारणमस्ति वा
शब्दप्रयोगस्य कारणमस्ति कालः
कालः तत्र अनेकानि कारणानि स्युः किन्तु एकं कारणं तु कालः येन यतोहि कालेन विना शब्दप्रयोगः तत्र ज्ञानं न उत्पद्यते अतः तत्र शब्दप्रयोगः इति उक्तं किन्तु तत्र शब्दप्रयोगं प्रति शब्दप्रयोगः किमर्थं कुर्मः यतोहि कालः इति अस्ति अतः एव घटः अतीतः इति वाक्यं वयं वदामः अतः घट शब्दप्रयोगं प्रति कालः इति साक्षात् कारणम् अस्ति तर्हि काले
कार्यता अस्ति काले कारणता अस्ति तयोः मध्ये अपि निरूप्य निरूपकभावः अस्ति
भावः अस्ति समीचीनं अतः अतः इदानीं तत्र चित्रं दृष्ट्वा तत्र कालं कीदृशम् इति वक्तुम् इच्छामश्चेत् तत्र ज्ञानम् इति आरभ्य अथवा तत्र अथवा तत्र अतीतत्वम् अस्तु तत्र अतीतत्वम् इति एव तत्र तत्र आरम्भं करोतु तत्र अतीत्व तत्र अग्रिमवाक्यं पठतु तर्हि तत्र
अतीतत्व अतीतत्वादि प्रकारक तद्वा
तद् सत्यं भगिनि
अतीतत्वादिप्रकारकज्ञानजनकशब्दप्रयोगनिष्ठ कार्यता निरूपित कारणता आश्रयत्वं कालस्य लक्षणम्
अतः तत्र कालस्य लक्षणं किम् अस्ति कारणता अस्ति किन्तु साधारणकारणता नास्ति विशिष्टा कारणता अस्ति खलु कारणता आश्रयत्वं कारणता कापि कारणता अस्ति सा कारणता अस्ति इति कृत्वा एव तदेव लक्षणं भवति तत्र कालस्य नाम कारणताश्रयत्वम् इति एव कालस्य लक्षणम् इदानीं कीदृशी कारणता अस्ति सा कारणता कया निरूपिता अस्ति
ज्ञानजनकशब्दप्रयोगनिष्ठ कार्यतानिरूपित कारणता
इति समीचीनं भगिनि तावदेव अपि तत्र कीदृशज्ञानजनकम् इत्युक्ते तत्र अतीतत्व अथवा आसीत् भविष्यति खलु तादृश तत्र घटस्य तत्र विवरणं कुर्मः तत्र विद्यमानः घटः इति तत्र तदपि विशेषणं भवितुम् अर्हति खलु घटः अतीतः घटः विद्यमानः इति अतः तत्र तादृश तत्सर्वं प्रकारकरूपेण भवति यतोहि तत्र अतीतत्वमिति विशेषणमस्ति अतः तादृशज्ञानजनकशब्दप्रयोगनिष्ठकार्यतानिरूपितकारणता आश्रयत्वं कालस्य लक्षणम् इति भवति अस्तु समीचीनम्
इत्यपि प्रकारता एव किल
किं भगिनि
अत्र प्रकारकः इत्युक्ते प्रकारता एव किल
प्रकारकः इत्युक्ते यस्मिन् प्रकारः अस्ति यस्मिन् प्रकारता अस्ति प्रकारः नाम तत्र अतीतत्वमेव तत्र प्रकारः खलु प्रकारकः नाम प्रकारः अत्र नाम अतीतत्वम् अतीतत्व इत्यादि प्रकारकाः अथवा प्रकाराः यस्मिन् अथवा येषु प्रकारताः भवन्ति भवितुम् अर्हन्ति नाम तत्र यदि वयं वदामः घटः अतीतः तत्र अतीतत्वं प्रकारकः भवति यदि वयं वदामः घटः विद्यमानः तर्हि प्रकारः अथवा प्रकारकः कः भवति तस्मिन् समये घटः विद्यमानः इति वदामः चेत् तत्र अतीतः इत्युक्ते अतीतत्वं प्रकारः विद्यमानः इत्युक्ते विद्यमानत्वम् इति एव अतः एतादृशप्रकारकज्ञानजनकं नाम तत्र घटः इति अस्ति तस्मिन् ज्ञाने किन्तु साक्षात् अर्थः केन भवति अतीतः इति पदस्य अर्थः समीचीनं भवति खलु कालः अस्ति इति कृत्वा यदि कालः नास्ति अतीतः इति पदस्य उच्चारणेन किमपि ज्ञानं न सम्भवति खलु अतः तत्र पटः अतीतः घटः अतीतः किमपि अतीतः इति भवेत् अतीतः इति तत्र तादृशशब्दप्रयोगः ज्ञानं जनयति इति कृत्वा तत्र प्रकारकस्य किञ्चित् महत्त्वम् अस्ति विशेष्यता विशेष्यं तस्य महत्त्वं तादृशं नास्ति अधिकं तत्र प्रकारकस्य महत्त्वमस्ति खलु अतः तत्र अतीतत्वादि इति एव तत्र दत्तमस्ति हा पुनः तत्र पुनः इति अस्ति तदपि पठितुं शक्नोति वा
पुनः अतीतत्वादि प्रकारकज्ञाननिष्ठकार्यतानिरूपितशब्दप्रयोगनिष्ठ कार्यतानिरूपितकारणताश्रयत्वं कालस्य लक्षणं
नाम तत्र ज्ञानजनकशब्दप्रयोगः इति शार्ट्कट् आसीत् ज्ञानजनकशब्दप्रयोगः इदानीं ज्ञानजनक इति तत्र तस्य विवरणं दत्तं ज्ञानजनकः इति आसीत् खलु तत्र जनकः ज्ञानजनकशब्दप्रयोगः इत्युक्ते तत् किञ्चित् विस्तृतरूपेण वदामः चेत् किं भवति ज्ञाननिष्ठ नाम तत्र ज्ञानं शब्दप्रयोग तत्र ज्ञानस्य जनकः शब्दप्रयोगः नाम तत्र कार्यता कारणता इति अस्ति तत्र जनकता जन्यता इति भवति चेत् तत्र जनकता कुत्र अस्ति कारणता यत्र अस्ति तस्य अन्यत् नामकरणमस्ति जनकता कारणता जन्यता खलु तर्हि ज्ञानस्य कारणं शब्दप्रयोगः तर्हि ज्ञाने जन्यता अथवा जनकता अस्ति कार्यता अस्ति शब्दप्रयोगे कारणता अस्ति अतः ज्ञानजनकशब्दप्रयोगः इत्युक्ते किं ज्ञाननिष्ठकार्यता निरूपित
शब्दप्रयोगनिष्ठकारणता
कारणता हा कारणता समीचीनं हा तत्र कार्यता अस्ति हा तत्र प्रायशः हा शब्दनिष्ठ तत्र किमर्थं कार्यता निरूपिता हा हा शब्दप्रयोगनिष्ठ हा अस्तु अस्तु तत्र प्रायशः किञ्चित् वक्तव्यम् अस्ति तर्हि खलु तर्हि
कारणता अपि अस्ति
हा कारणता अपि भवेत् शब्दप्रयोगनिष्ठ हा
नाम तत्र प्रायशः वाट्सप् मध्ये प्रश्नं पृच्छामि मध्ये कारट आश्रयः इति शब्दौ भवितुम् अर्हति इति अहं मन्ये
किं महोदय पुनः वदतु महोदय
ज्ञाननिष्ठ कार्यता निरूपित कारणताश्रय शब्दप्रयोगनिष्ठ इति यदि लिखितं
तादृशं वक्तुं शक्नुमः महोदय हा तादृशं वक्तुं शक्नुमः अत्र किमस्ति केवलं तत्र शार्ट्कट् आसीत् महोदय यथा वयं तत्र ज्ञानस्य विषये निरूपकम् इति स्वीकृतवन्तः खलु तथैव अत्र शब्दप्रयोगः किमस्ति ज्ञाननिष्ठकार्यता निरूपिता अस्ति निरूपितः अस्ति एषः शब्दप्रयोगः निरूपितः अस्ति शब्दप्रयोगः शब्दप्रयोगः
निरूपक इति शब्दं
तदपि वक्तुं शक्नुमः महोदय. नाम निरूपक निरूपित, यतोहि तत्र निरूप्य निरूपकभावः अस्ति. एकस्यां दिशि निरूपित, अन्यस्यां दिशि निरूपकः.
कारकनिरूपकः वा न तु
अत्र अत्र वयं शब्दप्रयोगः कीदृशः इति वक्तुम् इच्छामः. शब्दप्रयोगः कार्यतया निरूपितः शब्दप्रयोगः अस्ति इति वक्तुम् इच्छामः. शब्दप्रयोगः केन निरूपितः अस्ति? कार्यतया निरूपितः अस्ति. कार्यता कुत्र अस्ति? कार्यता ज्ञाने अस्ति. ज्ञानं कीदृशमस्ति? तत्र अतीतत्वादिप्रकारकज्ञानमस्ति. अतः तत्र अतीतत्वादिप्रकारकज्ञानं तस्मिन् कार्यता अस्ति. तर्हि निष्ठकार्यता तया निरूपितः शब्दप्रयोगः. अतः तत्र निरूपितशब्दप्रयोगः इति तावत् एतावत् यदस्ति महोदय. तर्हि तत्र एतावत् यदस्ति एतत् सर्वं शब्दप्रयोगस्य विशेषणम्. शब्दप्रयोगः कीदृशः? निरूपितः अस्ति एतावत् यदस्ति तया. अतः तादृशशब्दप्रयोगे किमस्ति? कार्यता अस्ति. अतः तत्र वयं किं कृतवन्तः अस्मिन् विवरणे महोदय? कारणतायाः उल्लेखः न कृतः.
किमर्थं?
तदपि स्थापितुं शक्नुमः, किन्तु तद् न कृतमस्ति तावदेव. तत्र एतावत् यद्यत् लक्षणमस्ति भिन्नभिन्नरीत्या वक्तुं शक्नुमः.
अस्तु महोदय.
तर्हि तत्र मध्ये मध्ये तत्र शार्ट्कट् अस्ति इति कृत्वा एकः एकां विधाम् इच्छति, अन्यः अन्यां विधाम् इच्छति इति कृत्वा तावदेव. हा
अस्तु.
अस्तु सुधा भगिनी, तर्हि तत्र किमस्ति निरूपितशब्दप्रयोगः कीदृशः? कार्यतया
निरूपित
शब्दप्रयोगः अस्ति.
शब्दप्रयोगः
हा. अपि कार्यता कुत्र अस्ति? ज्ञाने अस्ति. ज्ञानं कीदृशमस्ति? अतीतत्वादिप्रकारकज्ञानमस्ति. अतः तत्र तादृशज्ञाननिष्ठकार्यतया निरूपितः शब्दप्रयोगः. अपि निरूपकः शब्दप्रयोगः अपि तत्र वक्तुं शक्नुमः. यदि तत्र ज्ञानस्य विवरणं कर्तुम् इच्छामः इति, तत्र शब्दप्रयोगः ज्ञानं निरूपयति इति तादृशम् इच्छामश्चेत् तादृशनिरूपकमपि वक्तुं शक्नुमः. किन्तु इदानीं वयं शब्दप्रयोगः कीदृशः इति वक्तुम् इच्छामः. अतः एतत् सर्वं स्वीकृत्य शब्दप्रयोगः एतादृशः इति वदामः. अपि अस्मिन् शब्दप्रयोगे किमस्ति? कार्यता अस्ति.
तया निरूपिता कारणता काले अस्ति इति.
काले अस्ति, काले अस्ति. अतः तादृशकारणतायाः आश्रयत्वं, नाम कालः आश्रयः अस्ति कारणतायाः. तत्र यथा तत्र गन्धवत्वं पृथिव्याः लक्षणं, नाम गन्धवत्वस्य आश्रयः पृथिवी अस्ति इति एव तत्र पृथिव्याः लक्षणं. तथैव तत्र कालस्य लक्षणम् अस्ति कारणतायाः आश्रयत्वम्. आश्रयत्वं काले वर्तते, कारणता अपि वर्तते, आश्रयत्वं काले वर्तते. अतः आश्रयत्वं कालस्य लक्षणम् इति एतावत् उक्तम्. कोऽपि प्रश्नः भगिनी? सुधा भगिनी
न भगिनी न महोदय, समीचीनम्
अस्ति. समीचीनम् अस्तु. अन्य कोऽपि प्रश्नः?
महोदय मम प्रश्नः एकः.
वदतु भगिनि. राजीभगिनी नमस्कारः.
अतीतत्वादि इति आदिपदस्य अत्र प्रयोगः किमर्थं दत्तमस्ति?
आदि नाम केवलं घटः अतीतः इति एव कालस्य लक्षणं. केवलम् अतीतत्वम् इति तेन न पर्याप्तं खलु भगिनि?
कालत्रये अपि भवितुम् अर्हति.
अतः एव तत्र घटः विद्यमानः इति यदि प्रयो ज्ञानं भवति तदा तत्र अतीतत्व अतीतः इति स्थाने विद्यमानः तदा प्रकारः किं भवति यदि घटः अतीतः इति वदामः तत्र अतीतत्वं प्रकारः भवति नाम विशेषणम् अस्ति अतीतत्वं खलु. इदानीं यदि वयं वदामः घटः विद्यमानः अस्ति घटः विद्यमानः तर्हि घटः विशेष्यं विशेषणं किम् अस्ति
विद्यमानत्वम् अस्ति
विद्यमानत्वं तर्हि विद्यमानत्वमपि प्रकारकः भवति
प्रकारकः भवति अस्तु समानरीत्या
सत्यं भगिनि. अतः तत्र केवलं भूतकालस्य विषये एव कालस्य लक्षणं न भवितुम् अर्हति खलु. अतः सर्वविधविवरणं तत्र अतीतः विद्यमानः अथवा अग्रे भविष्यति एतत् सर्वं तत्र एतादृशव्यवहारं प्रति कारणत्वम् अस्ति कालस्य. अतः आहत्य इति अर्थे आदि इति उक्तम्.
ओ अस्तु महोदय. तत्र किमपि वयं वाक्यं वदामः चेत् किमपि काले तद् भवति
समीचीनं नाम घटः भविष्यति
सर्वदा विषयिता भवति अनन्तरं प्रकारता भवति तत्र निरूप्य
सत्यं भगिनि. अतः केवलं तत्र अस्मिन् स्थले अतीतत्वम् इति केवलम् एकमेव इति नास्ति अन्य तत्र पदमपि तत्र भवितुम् अर्हति कालसूचकपदम् अतः तत्र आदि इति उक्तम्.
अस्तु अस्तु खलु धन्यवादः.
अस्तु अतः तत्र इदानीं कालस्य लक्षणम् इति एतावत् कृतं किन्तु अग्रे गत्वा किञ्चित् आधिक्येन वयं कुर्मः किन्तु इदानीं तत्र व्यवहार इति पदघटितानि अष्टौ लक्षणानि तत्र घटितं वाक्यम् इत्युक्ते तत्र साक्षात् यत् उक्तं यत् पदम् उक्तं तद् वाक्ये भवेत् तदा एव घटितम् इति वदामः. तत्र व्यवहारघटितवाक्यानि इत्युक्ते व्यवहारः इति पदं साक्षात् पदं तत्र भवेत् समानार्थकपदम् अथवा अन्यरीत्या इति न व्यवहारः इति तद् पदमेव तस्मिन् लक्षणवाक्ये भवेत्. अस्तु तर्हि अग्रे धन्यवादः भगिनी. अग्रे शोभा भगिनी पठति वा.
आं महोदय श्रूयते खलु.
श्रूयते भगिनि.
आं तत्र व्यवहारः इति पदघटितानि अष्टौ लक्षणानि इति
सत्यं भगिनि.
तर्कसङ्ग्रहग्रन्थे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति. अतीतादिव्यवहारहेतुः कालः. संयुक्तादिव्यवहारहेतुः संयोगः. पृथक् व्यवहारहेतुः पृथक्त्वम्. एकत्वादिव्यवहारहेतुः सङ्ख्या. इति एव व्यवहारपदघटितानि अष्टलक्षणानि सन्ति. ध्येयं यत् अत्र लक्षणानि व्यवहारशब्दस्य न अपि तु व्यवहारशब्दघटितानि नाम व्यवहारशब्दयुक्तानि. व्यवहारशब्दयुक्तानि लक्षणानि अष्ट सन्ति. अपरेषां शब्दानां लक्षणस्य कथना अवसरे व्यवहारशब्दस्य प्रयोगः कृतः. तेषु शब्देषु अन्यतमशब्दः अस्ति कालः. कालस्य लक्षणं व्यवहारपदघटित व्यवहारपदयुक्तम् अतीतादिव्यवहारहेतुः कालः. अस्तु तर्हि तत्र व्यवहार इति पदघटितानि अष्टौ लक्षणानि एकम् इति तत्र तर्कसङ्ग्रहे व्यवहार इति पदघटितानि अष्टौ लक्षणानि सन्ति इति उक्त्वा
तर्कसङ्ग्रहः इति अस्माकं मूलग्रन्थः अस्ति. विद्याधरी अस्ति व्याख्या तर्कसङ्ग्रहस्य उपरि व्याख्या
आचार्येण
कृतः ग्रन्थः तस्य उपरि व्याख्या अस्ति अतः मूलग्रन्थे यथा वयं तत्र पृथिव्याः लक्षणवाक्यं दृष्टवन्तः तथैव तत्र पदार्थस्य पदार्थानां तत्र लक्षणवाक्यानि सन्ति तर्कसङ्ग्रहे दत्तानि सन्ति तर्हि तत्र अष्टलक्षणवाक्येषु व्यवहार इति पदम् अस्ति व्यवहारः इति पदम् अष्टलक्षणवाक्येषु अस्ति अतः तत्र अष्टलक्षणवाक्यानि व्यवहार इति पदघटितानि वाक्यानि सन्ति
अतीतादिव्यवहारहेतुः कालः इति इदानीमेव दृष्टवन्तः
तत्र व्यवहारः इति साक्षात् पदम् अस्ति खलु व्यवहारः इति अस्ति
पदघटितपदम् इति भवति
नाम तत्र वाक्यम् अस्ति तत्र व्यवहारः इति अस्ति अस्तु अग्रे
अपि च तत्र व्यवहारः इत्युक्ते ज्ञानजनकशब्दप्रयोगः इति अपि
इति एव सर्वत्र तद् समानार्थः सत्यं भगिनि
तर्हि तत्र अतीतादीनां विषये व्यवहारहेतुः कालः इति
एकं वाक्यं लक्षणवाक्यं
पदघटितानि इति उक्तत्वात् व्यवहारः इति भवेत् इति मन्ये संयुक्तादिव्यवहारहेतुः संयोगः तत्र संसर्गिता इति
दृष्टवन्तः संयोगः संयोगः इति वयं दृष्टवन्तः संयोगः इति गुणः अस्ति
तत्र
तस्य लक्षणवाक्ये तस्य लक्षणवाक्ये व्यवहारः इति पदं व्यवहारः इति पदम् अस्ति अत्र एतद् वाक्यम् अस्ति कालस्य लक्षणवाक्यं खलु
सत्यम्
अतीतादिव्यवहारहेतुः अस्ति कालः इति कालस्य लक्षणवाक्यं संयुक्तादिव्यवहारहेतुसंयोगः अस्ति कस्य वा लक्षणवाक्यं
तत्र संयोगस्य
संयोगस्य
तत्र महोदय संयुक्तादि इति
अग्रे अग्रे पठामः
अथवा भविष्यत्काले अपि भवति इति संयुक्तादि इति तत्र भिन्न संयोगस्य विषये अस्ति वा अथवा
इति तत्र अग्रे गत्वा पश्यामः भगिनि इदानीं केवलं तत्र व्यवहारः लक्षणवाक्ये भवति इति कृत्वा तत्र उदाहरणार्थं दत्तानि सन्ति वाक्यानि तावदेव
तर्हि तत्र संयुक्तादिविषये विषयेषु व्यवहारहेतुः संयोगः इति भवति पृथक् व्यवहारहेतुः पृथक्त्वम् इति तत्र व्यवहार इति पुनः पृथक् इति पृथक्त्वम् इति प्रायशः
तस्य लक्षणवाक्यम् वाक्यमस्ति पृथक्त्वस्य लक्षणवाक्यं
लक्षणवाक्यं हेतुः भवति पृथक्त्वम् इति अपि च एकत्व आदि एकत्वादिव्यवहारहेतुः सङ्ख्या इति तत्र एकत्व इति विषये व्यवहार इति तत्र तत्र हेतुः भवति सङ्ख्या इति तस्य लक्षणम् एकत्वादिव्यवहारहेतुः सङ्ख्या इति एव इति एव व्यवहारपदघटितानि अष्टलक्षणानि सन्ति इति एव अस्ति तत्र अष्टलक्षणं
तत्र तत्र केवलम् एकं द्वे त्रीणि चत्वारि वाक्यानि सन्ति अन्यानि चत्वारि वाक्यानि एव सन्ति येषु व्यवहार इति पदम् पदम् लक्षणवाक्येषु
तदा एव अतः व्यवहार घटितानि पदानि इति घटितानि
व्यवहारपदघटितानि
पदघटितानि
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 नाम तत्र
लक्षणानि इति वक्तुं
लक्षणानि लक्षणवाक्यानि लक्षणानि नाम लक्षणवाक्यानि सन्ति तत्र लक्षणवाक्यं लक्षणवाक्ये तत्र व्यवहारः इति पदः भवति इति कृत्वा वाक्यं कीदृशं व्यवहारघटितं वाक्यम् अपि व्यवहारः एकः भागः भवति इति कृत्वा व्यवहारः तत्र घटकः इति किमपि अस्ति हा नाम तत्र वाक्यं घटितम् अस्ति एषः एकः भागः अथवा घटकः इति अपि तत्र भवति अस्तु अग्रे भगिनि ध्येयं यत्
ध्येयं यत् अत्र लक्षणानि व्यवहारशब्दस्य न अपि तु व्यवहारशब्दघटितानि इत्युक्ते नामव्यवहारशब्दयुक्तानि तत्र लक्षणानि अत्र लक्षणानि व्यवहारशब्दस्य न
नाम तत्र यथा वयं दृष्टवन्तः तत्र अष्टौ लक्षणानि व्यवहारपदघटितानि अष्टौ लक्षणानि इति यदि शृण्मः वयं चिन्तयामः अस्तु व्यवहार इति पदस्य अष्टलक्षणवाक्यानि सन्ति इति चिन्तयामः किन्तु तद् नास्ति खलु
नास्ति
कालस्य लक्षणवाक्ये व्यवहार इति अस्ति संयोगः इति लक्षणवाक्ये व्यवहार इति अस्ति अतः व्यवहारस्य लक्षणवाक्यं नास्ति खलु
तत्र हेतुः हेतोः
नाम तत्र किमपि अन्यस्य लक्षणवाक्यम् अस्ति तत्र व्यवहार इति आगतं किन्तु अतः तत्र व्यवहारः व्यवहारस्य लक्षणवाक्यं नास्ति
व्यवहारस्य लक्षणवाक्यं नास्ति
कालस्य लक्षणवाक्ये व्यवहार इति अस्ति
अपि तु तत्र व्यवहारशब्दयुक्तानि इति अथवा व्यवहारशब्दघटितानि इति
वाक्यानि सन्ति
वाक्यानि तत्र इत्युक्ते महोदय तत्र लक्षणानि व्यवहारशब्दस्य न तत्तु अस्ति व्यवहार
नाम तत्र लक्षणानि इत्युक्तम् इत्युक्ते लक्षणवाक्यं वयं व्यवहार इति पदार्थस्य अष्टरीत्या लक्षणवाक्यं न उक्तवन्तः अथवा तर्कसङ्ग्रहे न उक्तं किन्तु तत्र कालस्य एकमेव लक्षणवाक्यं दत्तमस्ति खलु
हा तत् अग्रिमवाक्यं महोदय तत्र व्यवहारशब्दघटितानि लक्षणानि व्यवहारशब्दघटितानि इति वदनीयं वा तत्र नाम व्यवहारशब्दयुक्तानि इति
इत्युक्ते नाम तत्र अत्र लक्षणानि व्यवहारशब्दस्य न इत्युक्ते व्यवहार इति व्यवहार इति यदस्ति तस्य लक्षणवाक्यं नास्ति अष्टवाक्यानि अष्टवाक्यानि व्यवहारस्य लक्षणवाक्यानि न सन्ति
किन्तु किन्तु किम् अस्ति इति तत्र अग्रे दत्तं
नाम तत्र व्यवहारशब्दघटितानि एव लक्षणवाक्यानि सन्ति लक्षणानि इत्युक्ते लक्षणवाक्यानि कीदृशानि सन्ति इत्युक्ते तत्र अष्टवाक्यानि सन्ति लक्षणवाक्यानि सन्ति कस्य लक्षणं व्यवहारस्य लक्षणवाक्यं वाक्यम् अस्ति वा
नास्ति
नाम अतः एव तावदेव उक्तं भगिनि अत्र
किन्तु कस्य
लक्षणानि व्यवहार नाम कालस्य अस्ति संयोगस्य अस्ति भिन्नभिन्नपदार्थस्य अस्ति कः पदार्थः इति अत्र न उक्तं किन्तु कालस्य वा संयोगस्य वा पृथक्त्वस्य वा सङ्ख्यायाः वा अन्यस्य अन्येषां लक्षणवाक्यं वाक्यानि सन्ति तेषु वाक्येषु व्यवहार इति पदम् एकः भागः अस्ति अतः ता वाक्यानि लक्षणवाक्यानि तत्र व्यवहारशब्दस्य लक्षणवाक्यानि न सन्ति किन्तु व्यवहारशब्दयुक्तानि समीचीनं वा भगिनि अवगच्छति खलु
न तत् व्यवहारशब्दस्य नास्ति इति अवगतं किन्तु तत्र किन्तु किम् अस्ति इति
किम् इदानीमेव उक्तं खलु भगिनि तत्र संयुक्तादिव्यवहार एतत् संयोगः तत्र एतद् वाक्यं लक्षणवाक्यम् अस्ति वा
नास्ति
न न संयुक्तादिव्यवहार हेतु संयोगः इति
लक्षणवाक्यम् अस्ति किन्तु व्यवहारस्य कृते न संयोगः
इति एव तत्र दत्तमस्ति लक्षणानि व्यवहारशब्दस्य न अपि तु लक्षणवाक्यानि कीदृशानि व्यवहारशब्दयुक्तानि कस्य लक्षणवाक्यम् इति न दत्तं तस्य महत्त्वं नास्ति यतोहि तत्र यदि तस्य विषये वक्तुमिच्छामः तत्र सर्वाणि वाक्यानि दत्तानि भवन्ति खलु किन्तु न कृतवन्तः. कालस्य वा संयोगस्य वा पृथक्त्वस्य वा भवेत्, चिन्ता मास्तु. किन्तु व्यवहारपदस्य व्यवहारस्य लक्षणवाक्यं नास्ति इति एव अवगन्तव्यमस्ति खलु अत्र.
आम् महोदय.
हा अष्ट नाम तत्र व्यवहार इति पदघटितानि अष्टलक्षणानि सन्ति इति यदि शृण्मः, अस्तु अस्तु, तर्हि व्यवहारस्य अष्टविधलक्षणवाक्यं वाक्यानि सन्ति इति चिन्तनं भवेत्, किन्तु मा मास्तु इति उक्तं तावदेव. अस्तु अग्रे
व्यवहारशब्दानां लक्षणस्य कथनावसरे व्यवहारशब्दस्य प्रयोगः कृतः. तत्र
समीचीनं वा इदानीम्?
आं महोदय. व्यवहारशब्दस्य प्रयोगः कृतः. तेषु शब्देषु अन्यतमशब्दः अस्ति कालः. अधुना दृष्टवन्तः कालस्य लक्षणं व्यवहारपदघटित इति. तदपि दृष्टवन्तः व्यवहारपदयुक्तम् अथवा कालस्य लक्षणं व्यवहारपदघटित व्यवहारपदयुक्तम् अतीतादिव्यवहारहेतुः कालः इति.
इति अस्ति समीचीनं. तर्हि तत्र अतीतादिव्यवहारहेतुः कालः इति लक्षणवाक्यमस्ति. कालस्य लक्षणवाक्यमस्ति, न तु व्यवहारः इति पदस्य लक्षणवाक्यं. कालस्य लक्षणवाक्यमस्ति. अस्मिन् वाक्ये व्यवहारः इति पदः शब्दः अस्ति, अतः एतद् वाक्यं व्यवहारशब्दयुक्तं वाक्यम् अस्ति अथवा लक्षणवाक्यं व्यवहारशब्दयुक्तम् अस्ति. लक्षणवाक्यम् अथवा लक्षणं व्यवहारशब्दयुक्तम् अस्ति. तथैव तत्र अष्टलक्षणवाक्यानि सन्ति. अन्येषां तत्र व्यवहारपदस्य लक्षणवाक्यानि न सन्ति, किन्तु अन्येषां पदानां तत्र लक्षणवाक्यानि अष्टलक्षणवाक्यानि सन्ति. तानि सर्वाणि तत्र व्यवहारशब्दयुक्तानि सन्ति. अत्र चत्वारि दत्तानि सन्ति, चत्वारि अन्यानि अपि सन्ति. अस्तु समीचीनम्. इदानीं तत्र अग्रे तत्र अभिमला भगिनी अग्रे पठति वा?
आं महोदय. अतः आदौ व्यवहारशब्दस्य समीचीनबोधः स्यात्, तदनन्तरम् अष्टानां लक्षणानाम् अध्ययने सौलभ्यं भवति. ध्येयं यत् सर्वत्र सर्वेषु अष्टसु लक्षणेषु व्यवहारशब्दस्य अयमेव अर्थः, ज्ञानजनकशब्दप्रयोगः. एकत्वाद्व्यवहारहेतुः सङ्ख्या इत्युक्ते एकत्वरूपज्ञानजनकशब्दप्रयोगानुकूलगुणः सङ्ख्या. एवं रीत्या सर्वत्र व्यवहारशब्दस्य अयमेव अर्थः, ज्ञानजनकशब्दप्रयोगः. एतद् दत्तं यत् अस्माभिः व्यवहार इति शब्दस्य बोधः अस्ति वा न वा इति, यतोहि यदि अष्टलक्षणानि सन्ति, यदि एकमपि वयं एकस्यापि अध्ययनं कुर्मः तत्र तदा अष्टानां लक्षणानां अर्थः भवति.
पदस्य
अर्थः किमिति तत् केवलं ज्ञानजनकशब्द इति अस्ति. उदाहरणार्थं सङ्ख्या इत्युक्ते किम् इति दत्तम्. एकत्वादिव्यवहारहेतु सङ्ख्या, तस्य अर्थः अस्ति एकत्वरूप ज्ञानजनकशब्दप्रयोगानुकूलगुणः सङ्ख्या इति.
अतीतत्व अतीतत्वादि व्यवहारहेतुः
इति
अत्र अतीतत्वम् इति किम् आसीत् ज्ञानस्य
कालस्य
हा तत्र कालस्य लक्षणवाक्यं तत्र अतीतत्वम् अतीतत्वम् एतत् सर्वं विषयं तत्र ज्ञानम् आसीत् खलु ज्ञानस्य विषये तत्र अतः तत्र तथैव तत्र एकत्वादिव्यवहारहेतु नाम एकत्वरूपज्ञानं तादृशरूपज्ञानं तत्र अयं घटः इति घटरूपज्ञानं ज्ञानं कीदृशं तत्र घटरूपज्ञानं नाम घटः एव विषयः इति तादृश तत्र एकत्व एव विषयः यस्य तादृशज्ञानस्य जनकः शब्दप्रयोगः इति एव व्यवहारस्य अर्थः खलु अतः
तदेव सङ्ख्यायाः विषयमस्ति
हा तादृशव्यवहारं प्रति तत्र हेतुः अस्ति सङ्ख्या नाम अनुकूलगुणः नाम ता जनयति तादृशशब्दप्रयोगं जनयति इति एतत् सर्वम् अग्रे भवति किन्तु व्यवहारः इति सर्वत्र समानार्थक पदं भवति नाम सर्वत्र ज्ञानजनकशब्दप्रयोगः इति एव व्यवहारस्य
पारिभाषिकशब्दः अस्ति
शब्दः अस्ति हा सर्वत्र अष्टलक्षणवाक्येषु अपि समान अर्थः भवति अतः तत्र एकस्मिन् लक्षणवाक्ये तस्य बोधः जायते चेत् हा
सर्वत्र सर्वत्र अवगमनं भवति
भवति इति अस्ति अस्तु समीचीनमस्ति धन्यवादः भगिनी अस्तु तर्हि तत्र हा अतः तत्र अग्रे गत्वा वयं सर्वं तत्र येषाम् अंशानाम् आवश्यकता आसीत् एतत् सर्वं वयम् अद्य पठितवन्तः अग्रे गत्वा तत्र अग्रिमे वर्गे तत्र अस्मिन् चित्रे किं किम् अस्ति अपि तत्र अस्मिन् चित्रे तत्र अवच्छेदक अवच्छेद्यभावः तदपि अस्ति तदपि योजयितुम् इच्छामः तत् कथं कुर्मः इति अग्रिमे सप्ताहे पश्यामः तर्हि अस्तु कोऽपि प्रश्नः एतावत् यत् वयं कृतवन्तः
मम प्रश्नः अस्ति महोदय इदानीं पृच्छामि वा वाट्सप्
पृच्छतु महोदय पृच्छतु पृच्छतु
व्यवहारः ज्ञान यत् शब्दस्य प्रयोगेन ज्ञानं भवति इति खलु
तत्र गगा जिग्गि इति तादृशशब्दप्रयोगः अस्ति ध्वनिः अस्ति किन्तु तेन ध्वनिना ज्ञानं न भवति
ज्ञानं सत्यं
इति प्रश्नः नास्ति महोदय सत्यम् इति न वा इति प्रश्नः नास्ति समीचीनं
नाम यदि अहं वदामि अहं नीलं कदलीफलं खादामि कदलीफलं नीलं नास्ति तद् ज्ञानम् अस्ति वा ज्ञानं नास्ति वा
हा तदा अहं चिन्तयामि महोदय तत्र प्रायशः तत्र नैयायिका साक्षात् नैयायिकाः किं वदन्ति इति न जानामि किन्तु अहं प्रायशः अहं मम मतमस्ति तत्र निरर्थकं वाक्यम् अस्ति इति नाम तत्र तेन अर्थः न जायते अतः तत्र तेन तत् सः शब्दप्रयोगः व्यवहारः नास्ति इति मम मतमस्ति महोदय नाम हा नाम अर्थः वाक्यस्य साक्षात् अर्थः भवेत् अर्थः नाम तत्र यदि रमेशः मैसूरुनगरं गतवान् इति वाक्यमस्ति सः अर्थ सः शब्दप्रयोगः ज्ञानजनकम् अस्ति खलु
आं महोदय
सः गतवान् न वा न जानीमः तद् सत्यं न वा इति न जानीमः किन्तु ज्ञानं जनयति हा तत्र यथार्थज्ञानम् अथवा अयथार्थज्ञानं नाम सत्यं वा अथवा असत्यं वा इति न जानीमः किन्तु ज्ञानं जनयति इति कृत्वा व्यवहारः इति वक्तुं शक्नुमः ज्ञानस्य विषये तत्र अयथार्थज्ञानं यथार्थज्ञानम् अयथार्थज्ञानं तद् अग्रे ज्ञानस्य विषये यदा वयं कुर्मः तदा तस्य चर्चा भवति किन्तु इदानीं ज्ञानं सत्यं न वा इति प्रश्नः नास्ति. ज्ञानम् उदेति चेत् व्यवहारः, ज्ञानं न उदेति चेत् व्यवहारः नास्ति इति चिन्तनं महोदय.
अस्तु महोदय.
अस्तु, अन्य कोऽपि प्रश्नः? नो चेत् निश्चयेन तत्र वाट्साप् मध्ये पृच्छन्तु, यावत् शक्यम् अहम् उत्तरं ददामि. अस्तु तर्हि नमस्कारः, अग्रिमवर्गे मिलामः.
धन्यवादः.